महिम्नः पारन्ते परमविदुषो यद्य सदृशी स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः अथा वाचः सर्वस्वमतिपरिणामावधि गृणन् ममापेश स्तोत्रे हर निरपवादः परिकरः अतीतः पन्थानम् तव च महिमा वामनसयो अतद्व्यावृत्यायम् च कृतमपि धत्ते श्रुतिरपि सकस्य स्तोतव्यः कतिविध गुणः कस्य विषयः पदेत्वर्वाचीने पतति न मनः कस्य न वचः मधुस्फीता वाच परममृतम् निर्मितवतस्तव ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम् मम त्वेतां वाणीं गुणकथन पुण्येन भवतः पुनामित्यर्थेऽस्मिन् पुरमथन बुद्धिर्व्यवसिता वैश्वर्यम् यत्तज्जगदुदयरक्षाप्रलयकृत् त्रयी वस्तु व्यस्तम् तिसृषु गुणभिन्नासु तनुषु अभव्यानामस्मिन् वरदरमणीयामरमणी विहन्तुम् व्याक्रोशीम् विदधत इहैके जडधिया किमीह किं कायः स खलु किमुपायस्त्रिभुवनम् किमाधारो धाता स्रजति किमुपादान इति च अतैर्कैश्वर्यै त्वय्यनवसरदुस्थो हत धिया कुतर्कोऽयम् काशिन् मुखरयति मोहाय जगतः अजन्मानो लोका किमवयववन्तोऽपि जगताम् अधिष्ठातारम् किम् भवविधिरनादृत्य भवति अनीशो वा कुर्यात् भुवन जनने कः परिकरो यतो मन्दास्त्वाम् प्रत्यमरवर संशेरत इमे साङ्ख्यम् योगः पशुपतिमतम् वैष्णवमिति प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च रुचीनाम् वैचित्र्यादृजुकुटिलनानापथजुषाम् नृणामेको गम्यस्त्वमसि पयसामर्णव इव महोक्ष खट्वाङ्गम् परशुरजिनम् भस्म फणिनः कपालम् चेति यत् तव वरद तन्त्रोपकरणम् सुरास्ताम् ताम् ऋद्धिम् विदधति भवद्रूप्रणिहिताम् न हि स्वात्मा रामम् विषयमृगतृष्णा भ्रमयति ध्रुवम् कश्चित् सर्वम् सकलमपरस्त्वम् ध्रुवमिदम् परौ द्रव्याद्रव्ये जगति गदति व्यस्तविषये समस्तेऽप्येतस्मिन् पुरमथनतैर्विस्मित इव तुवञ्जिह्रेमि त्वाम् न खलु ननु दृष्टा मुखरता वैश्वर्यं यत्नात् यदुपरि विरंचिर्हरिरघ परिच्छेत्तुं याता वनलमनलस्कन्धवपुष ततो भक्तिश्रद्धा भरगुरुभृणद्भ्यां गिरिशयत् स्वयं तस्थेताभ्यां तव किमनुवृत्तिर्न फलति अयत्नादापाद्य त्रिभुवनमवैरव्यतिकरम् दशास्यो यद्बाहु न भृतरणकण्डु परवशाम् शिरः पद्मश्रेणी रचितचरणाम्भोरुहबले स्थिरायास्त्वद्भक्ते स्त्रिपुरहरविस्फूर्जितमिदम् अमुष्य त्वत्सेवा समधिगतसारम् भुजवनम् बलात् कैलासेऽपि त्वदधिवसतौ विक्रमयतः अलभ्या पाताले जलसजलिताम्बुष्टशिरसि प्रतिष्ठा त्वय्यासि ध्रुवमुपचितो मुह्यति खलः ऋद्धिं सुत्राम्नो वरद परमोच्चैरपि सतीम् अधश्चक्रे वाण परिजन विधेय त्रिभुवन न तच्चित्रम् तस्मिन् परिवसितरित्वच्चरणयो न कस्याप्युन्नत्यै भवति शिरसत्वै अवनतिः अकाण्ड ब्रह्माण्ड क्षयचकित देवा सुरकृपा विधेयस्यासीत्यस्त्रिनयन विषम् संहृतवतः सकल्माषः कण्ठे तव न कुरुते न श्रियमहो विकारोऽपि श्लाघ्यो भुवन भयभङ्ग व्यसनिनः असिद्धार्थानैव क्वचिदपि सदैवासुरनरे निवर्तन्ते नित्यम् जगति जैनो यस्य विशिखा सपश्यन्नीषत्वाम् इतरसुरसाधारणमभू स्मरः स्मर्तव्यात्मा न हि वशिशुपथ्यः परिभवः सहसा संशयपदम् पदम् विष्णोर्भ्राम्यद्भुजपरिघरुग्रहगणम् मुहूर्त्योर्दौस्थ्यम् या यनिभृतजटाताडिततटा जगद्रक्षायै त्वम् नटसि ननु वामैव विभुता वियद्व्यापी तारा गणगृणितफेनो मरुचिः प्रवाहो वाराम्यः पृषत लघुदृष्टः शिरसि ते जगद्वीपाकारम् जलधिवलयम् तेन कृतमि यनेनैवोन्नेयम् धृतमहिमदिव्यम् तव वपुः रथक्षोणीयन्ता शतधृतरगेन्द्रो धनुरथो रथांगे चन्द्रार्कौ रथचरणपाणिः शर इति विधक्षोऽस्ते कोऽयम् त्रिपुरतृणमाणम् वरविधि विधेयै क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः यदिस्ते साहस्रं कमलबलिमाधाय पदयोर् यदेको रेतस्मिन् निजमुदहरन्नेत्रकमलम् गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषा त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् क्रतौ सुप्ते जाग्रत्त्वमसि फलयोगे क्रतुमताम् त्वकर्म प्रध्वस्तम् फलति पुरुषाराधनमृते अतस्त्वां सम्प्रेक्ष क्रतुषु फलदान प्रतिभुवम् श्रुतौ श्रद्धां बद्ध्वा दृढपरिकरः कर्म सुजनः क्रिया दक्षो दक्ष क्रतुपतिरधीशस्तनुभृता वृषेणामार्त्विज्यं शरणदसदस्या सुरगणा क्रतुभ्रंशस्त्वत्तः क्रतुफलविधानं व्यसनिनो ध्रुवं कर्तु श्रद्धा विदुरमविचाराय हि मखा प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरम् गतं रोहितभूतारिरमयिषु मृषस्य वपुषा धनुष्पाणिर्यातं दिवमपि सपत्राकृतममुं प्रसन्तन्तेऽद्यापि त्यजति न मृगव्याधरभस स्वलावण्याशंसा धृतधनुषमह्नाय तृणवत् पुरक्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि यदिस्त्रैणं देवि यमनिरतदेहार्थघटना अवैति त्वामद्धा वतवरदमुग्धा युवतय श्मशानेष्वा क्रीडा स्मरहर पिशाचा सहचरा चिताभस्मालेपस्रगपि नृकरोटी परिकरः अमङ्गल्यं शीलं तव भवतु नामैवमखिलम् तथापि स्मर्त्रीणा वरद परमं मङ्गलमसि चित्ते सविधमवधायातमरुतः प्ररिष्यत्रुमाणः प्रमदसलिलोत्सङ्गितदृशः यदा लोक्याह्लादं हृदयिव निमज्जामृतमये दधत्यन्तस्तत्त्वं किमपि यमिनस्तत् किल भवान् त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं धृतवहस् त्वमापस्त्वं व्योम त्वमुधरणिरात्मा त्वमिति च परिच्छिन्नामेवं त्वयि परिणता बिभ्रतुगिरं न विद्मस्तत्तत्त्वं वयमिह हि यत्त्वं न भवसि त्रयीं तिस्रो वृत्तिस्त्रिभुवनमथो त्रीणपि सुराम् अकाराद्यैवर्णैस्त्रिभिरभिदधत्तीर्ण विकृति तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभि समस्तं व्यस्तं त्वां शरणदगृणत्यो मिति पदम् पुत्रः पशुपतिरथो ब्रह्म सह महांस तथा भीमेशाना वित्यद विधानाष्टकमिदम् अमुष्मिन् प्रत्येकम् प्रविचरति देवः श्रुतिरपि प्रियायास्मै धाम्ने प्रणिहित नमस्योऽस्मि भवते नमो नेदिष्ठाय प्रियदवदविष्ठाय च नमो नम क्षोदिष्ठाय स्मरहर महिष्ठाय च नमो नमो वर्षिष्ठाय त्रिनयनयविष्ठाय च नमो नमः सर्वस्मै ते तदिदमिति सर्वाय च नमः बहुलरजसे विश्वोत्पत्तौ भवाय नमो नमः प्रबलतमसे तत्संहारे हराय नमो नमः जनसुखकृते सत्वोत्पत्तौ मृडाय नमो नमः प्रमहसि पदे निस्त्रये गुण्ये शिवाय नमो
Thank you.